ॐ सहनाववतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र शानजत्प्रत्ययः। तस्मिन् विषये वयं बहु किमपि अतीतवन्तः। इदानीं तत्र केचन एव तत्र अभ्यासाः सन्ति, तान् कृत्वा तत्र अग्रे तत्र वयं तत्र गीताप्रवेशस्य पठनं कर्तुं शक्नुमः इति मन्ये। तर्हि तत्र पुटसङ्ख्या अस्ति 171। तर्हि तत्र अष्टमं, हा अस्तु, तत्र अष्टमं सप्तमं करणीयं वा अष्टमं वा भगिनि? उषा भगिनि,
करणीयं महोदय सप्तमं।
सप्तमम् अस्तु अस्तु, तर्हि भवती एव आरम्भं करोतु तर्हि।
आं महोदय। निरीक्षते सेवां निरीक्षमाणस्य पार्थस्य मनः शिथिलं जातम्। निरीक्षमाणस्य इति अस्ति तत्र, निरीक्षते
तत्र निरीक्षमाण इति शत्रन्तपदं, समीचीनं। तत्र वाक्यद्वयम् इति वदतु, तत्र पार्थः किं करोति?
पार्थः सेवां निरीक्षते तस्य मनः शिथिलं जातम्।
हा उत्तमं, समीचीनं। तस्य मनः शिथिलं जातं, तत्र जातम् इति भूतकालार्थकं खलु, नाम अभवत् इति जातं। तत्र शिथिलम् इत्युक्ते तत्र कुत्र अन्वयः?
शिथिलम्
इत्युक्ते किं? शिथिलं किं? शिथिलं जातं,
मनः शिथिलं जातं,
मनः शिथिलं जातं। तर्हि मनः इति पदस्य लिङ्गं किं?
पुंलिङ्ग अस्ति, मनः, मनसि, मनांसि, नपुंसकलिङ्ग।
हा यतोहि तत्र शिथिलमिति रूपं दृष्ट्वा वदतु, शिथिलम् इति कीदृशरूपं?
नपुंसकलिङ्गरूपं।
हा विशेषणं नपुंसकलिङ्गम् अस्ति चेत् विशेषमपि नपुंसकलिङ्गमेव भवेत्। हा समीचीनं भगिनि। हा अतः तत्र पार्थः सेवां निरीक्षते अथवा पार्थः सेवां निरीक्षमाणः अस्ति, तादृश हा तादृशपार्थस्य मनः
शिथिलं जातं।
जातम् उत्तमं भगिनि। हा तथैव अस्ति, अस्तु अग्रे सरामः तर्हि। तत्र नरेश महोदय अग्रे।
महोदय कुत्र अस्ति?
पेज् 170। ओ क्षम्यतां, 171 नास्ति, क्षम्यतां महोदय। हा हा धन्यवादः। 172 अभ्यासः 171 मध्ये आरम्भं, तस्य आरम्भः अस्ति, किन्तु 172 नम्बर् 8 महोदय, क्षम्यताम्।
172 नम्बर् 8 तत्र तु डयते अस्ति।
उषा भगिनी 7 कृतवती,
अस्तु अस्तु अस्तु, डयते खे डयमानं वैनतेयं दृष्ट्वा सर्पाः भीताः। अत्र सर्पाः भीताः किं? वैनतेयं दृष्ट्वा सर्पाः भीताः, डयमानं वैनतेयं दृष्ट्वा, खे तु आकाशे अस्ति।
तर्हि वाक्यद्वयम् इति तादृशरूपेण वदतु।
एकः तु वैनतेय डयमानम् अस्ति, वैनतेयः डयनमानम् अस्ति, खे डयनमानम् डयमानः अस्ति।
तत्र वैनतेयः के डयमानः
अस्ति,
अथवा वैनतेयः के डयते,
डयते
इदानीं
तत् दृष्ट्वा सर्पाः भीताः
खलु वैनतेयपुल्लिङ्गपदं
पुल्लिङ्गपदं तं दृष्ट्वा सर्पाः भीताः
तं दृष्ट्वा सर्पाः भीताः भवन्ति पुनः तत्र भीताः तत्र क्तप्रत्ययः भूतकालार्थं भीताः
भीताः भवन्ति
अभवन् समीचीनं महोदय तथैव अस्ति अस्तु अग्रे तत्र हर्षदभगिनी अग्रे
क्षम्यतां महोदय पञ्चनिमेषानन्तरं वदामि
अस्तु 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 भगिनि चिन्ता मास्तु तर्हि तत्र वेदा भगिनी अग्रे
वेदा भगिनी म्यूट् मध्ये अस्ति महोदय अद्य
ओ इति वा अस्तु 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 न ज्ञातवान् अस्तु अस्तु
अहं वदामि वा
निवेदतु भगिनि वदतु भगिनि वदतु भगिनि निवेदित निवेदित भगिनी उक्तवती खलु का उक्तवती हरि ओम् अस्तु अस्तु अस्तु
उपास्ते उपास्ते उपास्यमानैः योगिभिः परमात्मा दृष्टः योगिभिः उपासमानाः सन्ति
न योगिभिः न योगिभिः इति नास्ति खलु तर्हि तत्र उपासमानाः के सन्ति योगिभिः इति पदस्य
योगिनी अस्ति वा तत्र
न तत्र योगिन् इति अस्ति
योगिन्
योगिन् तत्र गुणीवत् तत्र गुणी गुणिनौ गुणिनः योगी योगिनौ योगिनः
योगिनः योगिभिः तृतीयविभक्ति अस्ति
समीचीनं तृतीयबहुवचनं समीचीनं
योगिनः उपासमानाः सन्ति तैः परमात्मा दृष्टः
समीचीनं तैः परमात्मा दृष्टः समीचीनं तत्र योगिनी इति अस्ति चेत् तत्र किं भवति योगिनी इति एव साक्षात् अस्ति चेत् योगिनीभिः इति समीचीनं किन्तु तत्र उपासमानाभिः इति भवति खलु
उपासमानाभिः
अतः तत्र उपासमानैः इति दृष्ट्वा तत्र पुल्लिङ्गम् इति ज्ञातुं
पुल्लिङ्गमस्ति
अतः तत्र क्लेशः मास्तु अस्तु समीचीनं भगिनि अस्तु पल्लवी भगिनि अग्रे
योगं युञ्जानः भगवन्तं ज्ञास्यति युञ्जानः
तत्र जनाः इति स्वीकरोतु भगिनि तत्र न दत्तं किन्तु योगं युञ्जानः जनाः भगवन्तं अयुञ्जानः जनः
आम् जनः योगं युज्यते
तत्र प्रायशः युङ्क्ते इति एव अस्ति खलु भगिनि युङ्क्ते इति
क्रिया कर्तरिप्रयोगे आं क्षम्यतां युज्यते तु
भिन्नं किन्तु अतः जनः योगं
युङ्क्ते तेन सः आम् एकवचनमस्ति सः भगवन्तं ज्ञास्यति
ज्ञास्यति इति तु तत्र भविष्यत्कालार्थकं तत्र जानाति इति तस्य
ज्ञास्यति
अतः तत्र योगं युञ्जानः जनः
भगवन्तं
ज्ञास्यति वदतु भगिनि युञ्जानः इति तत्र एकवचने बहुवचने युञ्जान्
युञ्जानाः
युञ्जानाः तावदेव अस्तु समीचीनम् अस्तु अग्रे उमा मीनाक्षी भगिनी अग्रे
ओके क्षम्यताम् यतस्ते यतमानाः योगिनः तत्त्वं पश्यति वाक्यद्वयं करणीयं वा
नाम तत्र प्रथमवाक्ये यतते अथवा यतते इति क्रियापदस्य सम्यक् रूपं भवेत्
योगिनः यतन्ते ते तत्त्वं पश्यन्ति
हा तत्र मुद्रणदोषः प्रायः अस्ति तावदेव तत्त्वं पश्यन्ति समीचीनं
पश्यति लिखितमस्ति परन्तु
पश्यन्ति एव तत्र मुद्रणदोषः अस्ति तावदेव यतोहि तत्र यतमानः अपि बहुवचने अस्ति योगिनः अपि बहुवचने अस्ति अतः तत्र मुद्रणदोषः न्यूना भवेत् इति चिन्तनेन प्रायशः पश्यति इत्र इत्यत्र एव तत्र मुद्रणदोषः भवेत्
आटोमेटिकलि ते तत्र पश्यन्ति आगच्छति
हा इति सत्यं भगिनि हा समीचीनं हा तत्र अतः योगिनः
योगिनः
यतमानाः सन्ति
ते तत्त्वं पश्यन्ति
तत्त्वं पश्यन्ति इति अस्ति समीचीनं भगिनि हा तथैव अस्ति अस्तु अग्रे तत्र शोभा भगिनी अग्रे
अस्तु वेपते वेपमानः अर्जुनः कृष्णं प्रणमति अर्जुनः वेपमानः अस्ति सः कृष्णं प्रणमति
सः कृष्णं प्रणमति समीचीनं भगिनि अस्तु धन्यवादः समीचीनम् अस्तु अग्रे तत्र अग्रे नरेश महोदय अग्रे
कुरुते देवार्थं कर्म कुर्वाणाः शाश्वतं पदम् आप्नुवन्ति देवार्थं कर्म कुर्वाणाः जनाः
जनाः इति स्थापयतु महोदय समीचीनं
जनाः देवार्थं कर्म कुर्वन्ति
कुर्वन्ति इति किन्तु तत्र यतोहि तत्र धातु
कुर्वते
हा कुर्वते अस्तु यतोहि तत्र
आत्मनेपदी आत्मनेपदी अस्ति
किन्तु अत्र आत्मनेपदीरूपम् इष्टम् अस्ति अथ कुरुते कुर्वते कुर्वते अतः तत्र जनाः देवार्थं कर्म
कुर्वते
कुर्वते कुर्वते अपि वयं जानीमः तत्र कुर्वाणः अस्ति इति कृत्वा तत्र अन्ते इन्ते इति नास्ति खलु बहुवचनस्य नाम पठन् तत्र शोभन्ते कम्पन्ते तादृशं नास्ति खलु बहुवचने मुगागमः नास्ति खलु मुगागमः नास्ति अत्र कुर्वाणः इति अस्ति खलु कुर्वाणाः किन्तु माणः इति नास्ति खलु शानजन्तरूपे शानजरूपे मुगागमः नास्ति अतः तत्र कुर्वते इति तत्र अन्ते ते इति भवेत् इति अस्माकं चिन्तनं समीचीनं अतः जनाः
देवार्थं कर्मं कुर्वते
कर्म
कुर्वते
यतोहि
ते शाश्वतं कर्माणि कुर्वते ते शाश्वतं पदम् आप्नुवन्ति
शाश्वतं पदं ते आप्नुवन्ति तत्र देवार्थं कर्म कुर्वाणः जनाः इत्युक्ते तत्र तत्र केवलं तत्र कर्म यथा तत्र भगवद्गीतायां दत्तं खलु नाम कर्म कुरु किन्तु फलं चिन्ता मा करोतु
चिन्ता मा करोतु
फलं तत्र कृष्णाय नमः सर्वं दत्तम् इति अर्थे, अतः तत्र देवार्थं कर्म कुर्वाणः जनाः ये सन्ति ते शाश्वतपदं शाश्वतं पदम् आप्नुवन्ति. तत्र पदम् इति कर्मपदं किम् आप्नुवन्ति? पदं पदं नाम अत्र पदम् इत्युक्ते शब्दः नास्ति खलु?
शाश्वतं शाश्वतं पदं तत् किमस्ति?
पदम् इत्युक्ते अन्य कोऽपि वदति वा तत्र पदम् इति अत्र किमस्ति?
स्थानं वा?
स्थानं, हा स्थानं स्थानं शाश्वतं स्थानं प्राप्नुवन्ति आप्नुवन्ति इति अस्ति. समीचीनं, हा अस्तु तर्हि अग्रे. समीचीनं महोदय, अग्रे तत्र उषा भगिनी अग्रे इदानीं तत्र नूतनाभ्यासः भगिनी एतानि वाक्यानि
उच्चैः पठत. सैनिकः युध्यते, सैनिकः जयति. युध्यमानः सैनिकः जयति.
हा तत्र किम् अभवत् इति किञ्चित् विवृणोतु.
सैनिकः युध्यते, सैनिकः जयति. युध्यते अपि जयति क्रियापदमस्ति तत्र. युध्यते ते पूर्वं तकारस्य पूर्वम् युध्य अकार दृश्यते, अतः मुगागमः आगच्छति शानचन्द्रप्रत्ययानाम्. अतः युध्यमानाः इति भूत्वा सैनिकः युध्यमानाः सैनिकः जयति इति रूपं भवति महोदय.
युध्यमानः युध्यमानः एकः
युध्यमानः.
समीचीनं भगिनि, हा अपि तत्र नियमः कः तत्र कुत्र शानजन्तरूपं भवति? आत्मनेपदि धातु इति एकः नियमः. अपि अन्यनियमः?
अन्यनियमः तकार क्रियापद
तत्तु रूपं तत्तु रूपं, किन्तु प्रयोगः कदा कर्तुं शक्नुमः? तत्र शत्रन्तरूपं तस्य प्रयोगः कदा भवति? आत्मनेपदि भवेत्, तत्र परस्मैपदि भवेत्, परस्मैपदि भवेत्. अपि
परस्मैपदि परस्मैपदि वर्तमानकालार्थे आत्मनि
किन्तु किन्तु तत्र वयं कदा उपयोगं कुर्मः? यदि क्रियाद्वयं युगपत् भवति खलु,
तत्र शत्रुप्रत्यये
तथा एव शानच् प्रत्यय प्रयोगे अपि. अतः तत्र अत्र किम् अस्ति? सैनिकः युध्यते, सः एव सैनिकः
जयति.
अतः तत्र युध्यते अपि जयते, क्रियाद्वयम् एकस्मिन् समये भवति इति कृत्वा शत्रन्तरूपं वा शानजन्तरूपं, किन्तु अत्र शानजन्तरूपं समीचीनम् इति कृत्वा तत् स्वीकृतम्. अतः तत्र युध्यमानः सैनिकः अस्ति, सः जयति, सः जयति. समीचीनं, हा अस्तु. अपि युध्यमानाः अस्ति चेत् सैनिकाः, सैनिकाः अस्ति चेत् युध्यमानाः इति भवति.
युध्यमानाः सैनिकाः जयन्ति
जयन्ति. समीचीनं भगिनि, हा तथैव अस्ति. अस्तु अग्रे तत्र
अहं वदामि
इदानीं वक्तुं शक्नोति वा? अस्तु वदतु.
आमामाम्. बालकाः मोदन्ति, बालकाः स्नान्ति. मोदमानाः बालकाः स्नान्ति. स्नानसमये एव बालकाः मोदमानाः भवन्ति
इति समीचीनम् इति अर्थः. समीचीनं भगिनि, हा उत्तमम्. अस्तु अग्रे निवेदित भगिनि.
आम्. कन्या लज्जते, कन्या जलं ददाति. लज्जमाना कन्या जलं ददाति. कन्या स्त्रीलिङ्गी अस्ति. एतत् कारणात् लज्जमाना कन्या.
समीचीनम्. अपि तत्र सा लज्जते, यदा सा जलं ददाति तस्मिन् समये सा लज्जते अपि, अतः सा लज्जमाना.
विशेषण विशेषभावः अस्ति.
सत्यं, समीचीनं. लज्जमाना इति विशेषणं, कन्या इति विशेष्यं. समीचीनं भगिनि, हा अस्तु अग्रे. पल्लवी भगिनि अग्रे.
भृत्यः भारं सहते, भृत्यः चलति. भारं सहमानः भृत्यः चलति. यदा भृत्यः चलति तस्मिन् समये एव भारं सहते.
समीचीनं
सः मानः भृत्यः कृते
विशेषणमस्ति समीचीनं भगिनि भृत्यः सः मानः भारं सहमानः अस्ति सः अतः भारं सहमानः भृत्यः चलति तत्र नियमः किमस्ति तत्र नाम भृत्यः भारं सहति अत्र नूतनमस्ति नाम तत्र पूर्वस्मिन् वाक्ये तत्र कर्मपदं नासीत् इदानीं कर्मपदम् अस्ति अतः तत्र भृत्यः भारं सहते भृत्यः भारं सहमानः अस्ति भारं सहमानः भृत्यः चलति नाम तत्र भारम् इति कर्मपदं सहमानः इति क्रियासूचक पूर्वमेव भवेत् नो चेत् क्लेशः भवति खलु नाम सहमानभृत्यः भारं चलति इति न वक्तव्यं खलु सहमानः इति भारं सहते भारं सहमानः भृत्यः चलति इति भवति समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि
आं महोदय षठः मधुरं भाषते षठः धनं हरति तत्र षठः इत्युक्ते धूर्तः इति तत्र एकस्मिन् काले एव एकस्मिन् समये एव सः मधुरम् अपि भाषते धनम् अपि हरति तर्हि तत्र मधुरं भाषमाणः षठः धनं हरति इति तत्र भाषते इति आत्मनेपदी पदम् इति कृत्वा भाषमाणः इति शानच् प्रत्ययरूपं प्रत्ययान्तरूपं भवति अपि च हरति प्रत्ययपदे हरति तस्य तु तत्र किमपि कार्यं नास्ति
समीचीनं भगिनि
अतः तत्र
वदतु भगिनि
तत्र तत् तदेव महोदय एकस्मिन् काले एव भवति इति कृत्वा मधुरं भाषमाणः षठः धनं हरति इति
समीचीनं
समये एव मधुरं भाषते अपि
इति अस्ति समीचीनम् अपि तत्र यदि वयं तत्र वाक्यानि पश्यामः तत्र प्रथमवाक्ये तत्र केवलं तत्र अकर्मकः धातुद्वयम् इति एव मन्ये तदनन्तरमपि तत्र मोदते स्नान्ति इति पुनः तृतीयवाक्ये तत्र कर्मपदमस्ति ददाति इति क्रियापदस्य कर्मपदं तदनन्तरं तत्र शानजन्तरूपस्य कर्मपदमस्ति तत्र आत्मनेपदी धातु कर्मपदमस्ति तद् शानजन्तपदं पदात् पूर्वम् आगच्छति इति निर्दिष्टम् इदानीं तत्र कर्मद्वयमस्ति तत्र खलु तत्र आत्मनेपदी धातु अपि
सत्यं महोदय सत्यं सत्यं तत्र कर्मद्वयम् अस्ति यतोहि तत्र भूधातुः द्विकर्मकधातुः
तत्र इदानीं तत्र स्थानस्य कर्मपदस्य स्थानस्य महत्वमस्ति नाम मधुरं भाषमाणः षटः धनं हरति तत् तथैव
सत्यं सत्यं
तावत्
तत्र सत्यं मधुरं भाषमाणः षठः धनं हरति इति तत्र मधुरम् इत्यस्य स्थाने धनम् इति स्थापितुं न शक्नुमः यतोहि तत्र भाषणं मधुरम् अपि च हरणं धनस्य हरणम् इति इति अपि च तत्र द्विकर्मकधातुः हृ इति हरति इति
हृ इति हरति ओ किन्तु
आं महोदय द्विकर्मकधातुः अस्ति
किन्तु अत्र केवलम् एकमेव कर्मपदं
सत्यं सत्यम् आम्
अस्तु समीचीनं भगिनि अस्तु उमा मीनाक्षी भगिनि अग्रे
जलयानं सागरे प्लवते जलयानं सागरे निमज्जति प्लवमानं जलयानं सागरे निमज्जति किं करणीयम् अत्र
केवलं तत्र प्लवमानं तत्र यत्
प्लवमानं जलयानं सागरे निमज्जति
नाम तत्र प्लवते अपि निमज्जति एकस्मिन् समये अतः एव तत्र
अतः अत्र निमज्जति प्रथमं स्थापयितुं शक्नुमः वा
शक्नुमः किन्तु तत्र प्रायशः तत्र तत्र किञ्चित् अर्थभेदः भवति सन्दर्भानुसारं तत्र कर्तुं शक्नुमः किन्तु प्रायशः अत्र न कर्तुं शक्नुमः यतोहि तत्र निमज्जमान तत्र निमज्जन्
शत्रुप्रत्यय
सत्यं निमज्जत् निमज्जत् निमज्जत्
सागरे निमज्जन् जलयानम्
निमज्जत् नपुंसकलिङ्गे खलु तर्हि निमज्जत्
निमज्जत् हा सागरे निमज्जत् जलयानं प्लवमान प्लवते सर्वत्र एवं कर्तुं शक्नुमः न
किन्तु तत्र किमस्ति तत्र सर्वत्र कर्तुं शक्नुमः व्याकरणरीत्या कोऽपि कापि हानिः नास्ति किन्तु अर्थभेदः कुत्रचित् भवेत् यतोहि अत्र प्लवते इत्युक्ते तत्र यत् गच्छति खलु सागरे गच्छति
तस्य निमज्जनं न करोति न
हा अतः तत्र यदा सः गच्छति तदा निमज्जनम् अभवत् इति वक्तुम् इच्छामः खलु अतः तत्र यद्यपि व्याकरणदृष्ट्या भेदः नास्ति किन्तु अर्थदृष्ट्या भेदः वर्तते कुत्रचित् अत्र वर्तते
चतुर्थवाक्यं पश्यतु महोदय भारं सहमानः भृत्यः चलति चलन् भृत्यः भारं सहते एवमपि वयं वक्तुं शक्नुमः न
तत्र 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 अर्थभेदः नास्ति समीचीनम् अत्र नास्ति समीचीनं चतुर्थवाक्ये नास्ति समीचीनं भगिनि किन्तु अत्र अस्ति अतः कुत्रचित् भवति कुत्रचित् न भवति अतः तत्र सावधानेन तत्र परिवर्तनं करणीयं
परिशीलनं कृत्वा एव वक्तव्यं
वक्तव्यं सत्यं भगिनि तथैव अस्ति अस्तु समीचीनम् अस्तु अग्रे उषा भगिनि
दम्पती शिवं वन्दते दम्पती पुष्पाणि अर्पयतः यदा द्वे शिवं वन्दते तदा एव पुष्पाणि अर्पयतः अतः शिवं वन्दमानौ दम्पती पुष्पाणि अर्पयतः
तत्र दम्पती इति नित्य द्विवचनं
द्विवचनं
अतः तत्र दम्पती शिवं वन्देते वन्दमानौ शिवं वन्दमानौ दम्पती
पुष्पाणि अर्पयतः अर्पयति अर्पयतः अर्पयन्ति
समीचीनं भगिनि तथैव अस्ति अस्तु अग्रे तत्र नरेश महोदय अग्रे
पुत्रयौ मातरं सेवेते पुत्रयौ सन्तोषं प्राप्नुतः अत्र द्विवचन अस्ति पुत्रयौ
लिङ्गं
स्त्रीलिङ्गं पुत्रयौ मातरं सेवयते सेवेते सेवेते तत्र सेवमाना अस्ति द्विवचने सेवमाने अस्ति
लता लते लताः सेवमाना सेवमाने सेवमाना
सेवमानाः अतः मातरं सेवमाने अस्ति पुत्रयौ तु द्विवचने अस्ति अग्रे सन्तोषं प्राप्नुतः तदपि द्विवचने अस्ति मातरं सेवमाने पुत्रयौ सन्तोषं प्राप्नुतः
समीचीनं प्राप्नुतः तत्र बहुवचने अस्ति चेत् रूपं किं भवति
मातरं सेवमानाः पुत्र्यः सन्तोषं प्राप्नुवन्ति
प्राप्नुवन्ति इति अस्ति समीचीनम् इति एव अस्ति अस्तु तर्हि तत्र अग्रे सरामः तत्र अग्रे तत्र इदानीं तत्र यद् कोष्टके दत्तमस्ति एतत् प्रायशः वयं सम्यक्तया जानीमः इति मन्ये खलु अतः तत्र किन्तु एकवारं पठामः तदनन्तरं तर्हि तत्र निवेदिता भगिनी एकवारं पठति वा तत्र यदस्ति तत्र कोष्टके दत्तानि क्रियापदानि
अधिते अधि अधिकम् इ अधियानः अधियाना अधियानम् पुल्लिङ्गे अधियानः स्त्रीलिङ्गे अधियाना नपुंसकलिङ्गे यधियानम् शेते चि शयानः शयाना शयानम् विक्रीणीते वि अधिकं क्री विक्रीणानः विक्रीणाना विक्रीणानम् कुरुते कुरुधातु कुर्वाणः कुर्वाणा कुर्वाणम् जानीते ज्ञाधातु जानानः जानाना जानानम् ब्रूते ब्रूधातु ब्रुवाणः ब्रुवाणा ब्रुवाणम् भुङ्क्ते भुज भुञ्जानः भुञ्जाना भुञ्जानम् मनुते मन मन्यानः सरि मन्वानः मन्वाना मन्वानम् आस्ते आस् आसीनः आसीना आसीनम् प्रयुङ्क्ते प्र अधिकं युज प्रयुञ्जानः प्रयुञ्जाना प्रयुञ्जानम्
इति समीचीनं भगिनि. अपि अत्र सर्वत्र मुगागमः न भवति, नाम तत्र शोभमानः कम्पमानः तादृशं नास्ति, सर्वत्र आनः इति एव. यतोहि तत्र ते पूर्वं ह्रस्वाकारः नास्ति, क्रियापदस्य प्रथमपुरुष एकवचनरूपं दृष्ट्वा तत्र कम्पते, ते पूर्वम् अकारः अस्ति कम्पमानः इति, तादृशं नास्ति सेवमानः सेवते सेवमानः तादृशं नास्ति
सर्वत्र.
हा नाम तत्र यत्र ह्रस्वकारः अस्ति ते पूर्वं प्रथमपुरुषे एकवचनरूपे तत्र मुगागमः मानः 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 इति रूपं भवति, यत्र तद् नास्ति आनः इति एव रूपं भवति. अतः तत्र अधीयानः शयानः विक्रीणानः कुर्वाणः जानानः इति एव रूपं भवति. अतः तत्र मुगागमः अत्र कुत्रापि नास्ति इति समीचीनं भगिनि. हा अस्तु, एतत् वयं बहुवारं दृष्टवन्तः एतादृशम्. अतः
इदानीं मनुते मनुते क्रियापदस्य अर्थः किं? मनुते
मनुते मन्यते मनुते हा इति मन्ये, तत्र चिन्तनम् इति चिन्तनं चिन्तनम् इति चिन्तयति इति चिन् हा मनुते इत्युक्ते नाम अहं तद् हा सः तत् चिनति तत् चिन्तयति इति चिन्तयामि भगिनि. नाम अहं मन्ये इति तदेव अस्ति इति मनुते तदेव भवेत्. कोऽपि दृष्ट्वा वदति वा तत्र अर्थः कः इति? अहं न स्मरामि भगिनि. हा इति
टु थिङ्क् मन् धातु अस्ति अष्टमगणीय टु थिङ्क् अण्डर्स्टाण्ड् टु रिगार्ड् टु थिङ्क् टु बिलीव् टु अस्यूम्
अस्तु
अवबोधने अवबोधने
अवबोधने अस्तु. अतः तत्र तथैव तथैव अस्ति. अस्तु समीचीनं, धन्यवादः भगिनि. हा
धन्यवादः.
अस्तु अग्रे पल्लवी भगिनि अग्रे अग्रे पल्लवी भगिनि अग्रे चतुर्थाभ्यासः.
आम्, अधोलिखितानि वाक्यानि यथोदाहरणानुगुणं परिवर्तयत. उदाहरणं ज्वरः वर्धते, भवान् ज्वरं निवारयतु. भवान् वर्धमानं ज्वरं निवारयतु
इति उदाहरणं दत्तमस्ति. तर्हि तत्र कार्यं किम् अस्ति? नाम तत्र भवान् तत्र वाक्यद्वयमस्ति, ज्वरः वर्धते, भवान् ज्वरं निवारयतु. तर्हि ज्वरमिति ज्वरमिति पदस्य विभक्ति का तत्र द्वितीयवाक्ये?
द्वितीयवाक्ये तु द्वितीय एकवचनं.
अतः तत्र वर्धते इति पदस्य शानजन्तरूपं स्वीकृत्य तस्य द्वितीयविभक्त्यन्तं स्थापनीयम्.
वर्धमानं ज्वरम्
समीचीनम्
इति अपि वक्तुं शक्नुमः. यः ज्वरः वर्धते वर्धमानः अस्ति तं निवारयतु.
समीचीनं भगिनि, समीचीनं.
अग्रिमं पठामः वा, पठामि वा?
पठतु, करोतु भगिनि अग्रिमम्.
अर्जुनः खिद्यते, कृष्णः अर्जुनस्य सारथिः अस्ति. खिद्यमान अर्जुनस्य, तर्हि खिद्यमानस्य अर्जुनस्य सारथिः, कृष्णः खिद्यमानस्य अर्जुनस्य सारथिः अस्ति
इति एव अस्ति. समीचीनं, कृष्णः खिद्यमानस्य अर्जुनस्य सारथिः अस्ति. समीचीनं भगिनि, अस्तु. अग्रे उषा भगिनि.
आं महोदय. वणिजः शाकं विक्रीणीते, वणिजः संस्कृतेन वदति. विक्रीण, तत्र तु वणिजः एक एव अस्ति. तत्र शाकं विक्रीणीते, वणिजः संस्कृतेन वदति.
वाणिजः इति अस्ति खलु अथवा वणिजः इति?
वाणिजः, क्षम्यतां महोदय. वाणिजः शाकं विक्रीणीते, वाणिजः संस्कृतेन वदति. विक्रीणान शाकं विक्रीणानः इति भवति. तत्र शाकं विक्रीणानः वाणिजः संस्कृतेन वदति.
शाकं, शाकं विक्रीणानः वाणिजः,
वाणिजः संस्कृतेन वदति.
हा समीचीनं,
सम्यक्,
समीचीनं, समीचीनं. हा शाकं विक्रीणानः वाणिजः संस्कृतेन वदति. समीचीनं, यतोहि तत्र शाकं विक्रीणीते इति अस्ति, अतः शाकं कर्मपदं, विक्रीणानः इति पदात् पूर्वमेव भवेत्, अतः शाकं विक्रीणानः वाणिजः संस्कृतेन वदति. समीचीनं भगिनि, हा अस्तु. अग्रे उमा मीनाक्षी भगिनि.
नक्षत्रे प्रकाशेते, वैज्ञानिकाः अवलोकन्ते. प्रकाशमाने नक्षत्रे वैज्ञानिकाः अवलोकन्ते
इति एव अस्ति. समीचीनं, प्रकाशमाने, प्रकाशमाने नक्षत्रे वैज्ञानिकाः.
अत्र
किं भगिनि?
नक्षत्रे प्रकाश्यते, तत्र द्विवचनमस्ति.
सत्यम्, अतः
अतः प्रकाशमाणे,
प्रकाशमाणे एव
माणे वैज्ञानिकाः अवलोकन्ते.
तत्र यत्र नक्षत्रे प्रकाश्यते इति अस्ति, तत्र नक्षत्रे इति कर्तृपदमस्ति, किन्तु यद् यदि वयं वैज्ञानिकाः नक्षत्रे प्रकाशमाणे नक्षत्रे अवलोकन्ते इति वदामः, रूपं समानम् इति इति दृश्यते, किन्तु कर्मपदं भवति. सत्यं, तदेव अस्ति, तावदेव.
समीचीनं, परन्तु नपुंसकलिङ्गे अस्ति, अतः प्रथमा द्वितीया समानमेव भवति
इति अस्ति. सत्यं भगिनि, तथैव अस्ति. समीचीनम्, अस्तु. अग्रे शोभा भगिनि.
आं महोदय. सुवर्णकारः सुवर्णं परीक्षते, सुवर्णकारात् आभरणं स्वीकरोतु. सुवर्णकारः सुवर्णं परीक्षते, परीक्षते इत्यस्य परीक्षमाणः सुवर्णकारः इति भवति. सुवर्णं परीक्षमाणः सुवर्णकारः, तर्हि तत्र सुवर्णं परीक्षमाण माणं, न सुवर्णं परीक्षमाणात् सुवर्णकारात् आभरणं स्वीकरोतु.
समीचीनं, सुवर्णं परीक्षमाणः सुवर्णकारः अस्ति, तस्मात् नाम सुवर्णं परीक्षमाणात् सुवर्णकारात् आभरणं स्वीकरोतु. समीचीनं भगिनि, अस्तु. अग्रे तत्र समीचीनं भगिनि, निवेदिता भगिनि.
स्तेनः भुङ्क्ते, जनाः तं दण्डयति. सोरि दण्डयन्ति तेन भुङ्क्ते तेन भुञ्जानः
समीचीनं
सारि भुञ्जानं स्तेनं जनाः दण्डयन्ति
भुञ्जानं स्तेनं जनाः दण्डयन्ति इति समीचीनं समीचीनम् अस्तु अग्रे हर्षदा भगिनि
महोदय स्तेनः इत्युक्ते किं
चोरः भगिनि
अस्तु अस्तु धन्यवादः धनु संस्रते तस्य नाम गाण्डीवम् धनु संस्रमानम् अस्ति नपुंसकलिङ्गं
समीचीनं भगिनि तथैव
धनु संस्रमानम् अस्ति तस्य नाम गाण्डीवं संस्रमानस्य धनु धनुषः नाम गाण्डीवम्
समीचीनं भगिनि धनुष्
धन्यवादः
धनुष् इति शकारान्तपदं धनुष् धनुषी धनुषि समीचीनं तर्हि धनुषः अतः श्रंसमानस्य धनुषः
धनुषः नाम गाण्डीवम्
गाण्डीवम् इति भवति समीचीनम् अग्रे नरेश महोदय
मुनयः पर्युपासते तेभ्यः देवः वरं यच्छति अत्र तु मुनयः पर्युपासते पर्युपासमानः मानाः सन्ति मुनयः पर्युपासः पासमानाः सन्ति तेभ्यः
मुनयः
पर्युपासमानाः सन्ति
समीचीनं
तेभ्यः देवः वरं यच्छति अत्र मुनयः पर्युपासमानेभ्यः तत् देवः अत्र पर्युपासमानेभ्यः मुनिभ्यः मुनिभ्यः वरं यच्छति
देवः पर्युपासमानेभ्यः मुनिभ्यः
वरं यच्छति
चतुर्थी समीचीनं चतुर्थी भवति समीचीनं महोदय समीचीनमस्ति अस्तु अग्रे तत्र उमामिनस्य भगिनी अग्रिम अभ्यासम् आरम्भं करोति वा
किम् अग्रिम अभ्यासम् आरम्भं करणीयं वा
पञ्चमं
विशेष्यानुसारं शानजन्तरूपाणि योजयित्वा वाक्यानि रचयत् उदाहरणं शिष्यः वन्दते तं गुरुः अभिनन्दति वन्दमानं शिष्यं गुरुः अभिनन्दति ओके अग्रिमवाक्यं पठामि बालिकाः नाटकं वीक्षते
बालिका नाटकं वीक्षते
क्षम्यतां बालिका एकवचनं बालिका नाटकं वीक्षते तया निद्रा कृता तया इत्युक्ते षष्टिः न तत्र
न न तया इति तृतीया सा ते ताः तां ते
तया निद्रा कृता इत्युक्ते किं
कया निद्रा कृता
बालिकया निद्रा कृता
इति अस्ति समीचीनं बालिकया
वीक्षमाणया बालिकया निद्रा कृता तदा नाटकं वीक्षमाणया बालिकया निद्रा कृता
इति भवति समीचीनं भगिनि नाटकं वीक्षमाणया बालिकया निद्रा कृता समीचीनं तथैव अस्ति भगिनि उत्तमं अस्तु समीचीनं भगिनि अस्तु अग्रे उषा भगिनी अग्रे
आं महोदय आरक्षकाः चोरं गृह्णते तान् सर्वे प्रशंसन्ति आरक्षकाः चोरं गृह्णते तान् सर्वे प्रशंसन्ति अस्तु सर्वे सर्वे चोरं तान् गृह्णान् गृह्णान् इति भवति सर्वे चोरं गृह्णान् आरक्षकान् आरक्षकान् प्रशंसन्ति सर्वे चोरं गृह्णान् आरक्षकान् प्रशंसन्ति इति भवति वा महोदय
सर्वे चोरं गृह्णान्
गृह्णान् आरक्षकान्
भगिनि तत्र प्रथमाविभक्ति एकवचनरूपं वदतु गृह्णते इति क्रियापदस्य शनजन्तरूपं
गृह्णाति
न न गृह्णाति नास्ति गृह्णाति अस्ति चेत् परस्मै
गृह्णते गृह्णते आरक्षः चोरं गृह्णते गृह्णते तान् सर्वे प्रशंसन्ति सः आरक्षकः चोरं गृह्णते गृह्णाते गृह्णन्ते इति भवति न महोदय
तत्र भवती उक्तवती तत्र गृह्णान् तत्र गृह्णान् इति उक्तवती खलु
आं महोदय गृह्णान्
इति तत्र पदस्य गृह्णान् इति पदस्य विभक्तिका वचनं किं
गृह्णान् चोरं गृह्णान्
भवती यत् पदम् उक्तवती तस्य विभक्ति
षष्टि न गृह्णान् आरक्षकान् कर्म द्वितीया अस्ति महोदय बहुवचने
अस्तु तर्हि तत्र तदस्ति समीचीनम् अस्तु इदानीं तत्र तदस्ति चेत् तत्र प्रथमाविभक्ति एकवचनं किं भवेत्
सः प्रथमाविभक्ति एकवचने सः अस्ति
न भगिनि गृह्णान् इति उक्तवती खलु तस्य पदस्य अन्यत् पद अन्यपदस्य मास्तु
सः तौ ते तं तौ तान्
तत् तद् न अस्ति न भगिनि यत् गृह्णान् इति उक्तवती खलु
आं महोदय
तस्य पदस्य प्रथमाविभक्तिरूपं
गृह्णान् गृह्णन गृह्णनः इति अस्ति गृह्णान् क्लेशः अस्ति महोदय
अस्तु भगिनि तर्हि तत्र यत् भवती उक्तवती समीचीनं तत्र गृह्णा गृह्णानः इति एव तत्र
किमस्ति महोदय गृह्णानः
गृह्णानः गृह्णानः इति प्रथमाविभक्ति एकवचनरूपम् अस्ति पुल्लिङ्गे गृह्णानः
इत्युक्ते
एकनिमिषः गृह्णानः इति प्रथमविभक्ति एकवचनम् अस्ति भगिनि गृह्णानः इदानीं बहुवचने प्रथमविभक्ति बहुवचने किम् अस्ति
गृह्णान् गृह्णानः गृह्णानौ गृह्णानः
न बहुवचने किम् अस्ति
द्वितीयविभक्ति महोदय
प्रथमाविभक्ति बहुवचनरूपं वदतु भगिनि
गृह्णानः गृह्णानौ गृह्णानाः
हा तत्र देवः देवो देवः तावदेव खलु इदानीं देवः इति पदस्य द्वितीयविभक्तिरूपाणि वदतु
देवः देवो देवाः देवं देवो देवान्
हा इदानीं गृह्णानः इति तस्य प्रथमद्वितीयद्वयमपि वदतु इदानीं
गृह्णानः गृह्णानौ गृह्णानः गृह्णानाः
गृह्णानाः
गृणानां गृणानां
न न न द्वितीयविभक्ति एकवचनं किम् अस्ति
गृणानं गृणानौ गृणान गृणान गृणान्
न गृणानान् अतः एव क्लेशः अस्तु तत्र न तत्र न इति न न इति
गृणानान्
इदानीं समीचीनं हा अस्तु इदानीं वाक्यं वदतु
सर्वे चोरं गृणानान् आरक्षकान् प्रशंसन्ति
हा प्रशंसन्ति हा इदानीं समीचीनं हा अस्तु हा उत्तमं भगिनि हा अस्तु अग्रे हर्षदा भगिनि अग्रे
आं महोदय सः सम्यक् काव्यम् अधीते तस्य ज्ञानं वर्धते सः सम्यक् काव्यम् अधीयानः अस्ति तस्य ज्ञानं वर्धते सम्यक् काव्यम् अधीयानस्य तस्य ज्ञानं वर्धते
उत्तमं भगिनि सोपानानि उक्तवती उत्तमं भगिनि अस्तु अग्रे पल्लवी भगिनि अग्रे
ताः नृत्यं कुर्वते भवती ताभ्यः पानकं ददातु ताः नृत्यं कुर्वतीभ्यः
ताभ्यः तत्र एक प्रथमविभक्तिरूपं वदतु भगिनि तर्हि तत्र
कुर्वती
इति स्थाने नाम तत्र चन्द्रः शोभते इति स्थाने चन्द्रः शोभमानः अस्ति इति तादृशरूपं प्रथमतया वदतु तर्हि ताः नृत्यं कुर्वते ताः नृत्यं कुर्वाणाः सन्ति श्रीलिङ्गं खलु ताः इति
चतुर्थी ताभ्यः नृत्यं कुर्वाणाभ्यः इति
कुर्वाणाभ्यः तथाभ्यः
कुर्वाणाभ्यः ताभ्यः पानकं ददातु भवती नृत्यं कुर्वाणाभ्यः ताभ्यः पानकं ददातु
इति भवति उत्तमं भगिनि तथैव अस्ति अस्तु अग्रे निवेदिता भगिनि
आम् छात्राः प्रथमस्थानाय स्पर्धन्ते तेषु कः प्रथमस्थानं प्राप्नुयात् अत्र सप्तमी विभक्ति स्पर्धमाना छात्रा स्पर्धमानाः छात्राः स्पर्धमानाः छात्राः छात्रासु
किन्तु तेषु इति
स्पर्धमानासु छात्रासु प्रथमस्थानाय स्पर्धमानासु छात्रासु न
तदपि वदतु पुनः तदनन्तरं पुल्लिङ्गे वदतु
प्रथमस्थानाय स्पर्धमानासु छात्रासु कः प्रथमस्थानं प्राप्नुयात्
न का प्रथमस्थानं प्राप्नुयात्
सोरि का प्रथमस्थानं प्राप्नुयात्
इति एकं रूपं इदानीं पुल्लिङ्गे
स्पर्धमानेषु प्रथमस्थानाय स्पर्धमानेषु छात्रेषु कः प्रथमस्थानं प्राप्नुयात्
इति भवति समीचीनं भगिनि तथैव अस्ति उत्तमम् अस्तु अग्रे शोभा भगिनि
कपयः वृक्षेषु कूदन्ते भवती तान् वीक्षताम् कपयः वृक्षेषु तत्र बहुवचने कूर्दमानाः सन्ति भवती तान् वीक्षताम् वृक्षेषु कूर्दमानेषु तत्र कपिः
न कूर्दमानेषु इति किमर्थम्
इत्युक्ते वृक्षेषु कूर्दन्ते अस्तु कपयः वृक्षेषु कूर्दमानं तान् अस्तु क्षम्यतां कूर्दमानः इति कूर्दमानं कूर्दमानान् इति भवति वृक्षेषु कूर्दमानान् कपिः तत्र हरिः हरीन् कपीन् भवति वीक्षताम्
पुनः एकवारं भगिनि
अस्तु तत्र कूर्दमा वृक्षेषु कूर्दन्ते इत्युक्ते कूर्दमानाः सन्ति कपयः तर्हि तत्र तान् इति द्वितीयविभक्तिः तान् वीक्षताम् इति कूर्दमानः इत्यस्य द्वितीया बहुवचने कूर्दमानान् इति भवति कुत्र वृक्षेषु कूर्दमानान् कपयः इति भवति अपि च तान् इदानीं तत्र कपयः इत्यस्य अन्वयः भवेत् तत्र अतः कपिः इति हरिशब्दवत् हरि हरिः तत्र हरिं हरि हरीन् इति भवति कपीन् इति भवति वृक्षेषु कूर्दमानान् कपीन् भवति वीक्षताम्
इति भवति समीचीनं भगिनि उत्तमं समीचीनमस्ति
धन्यवादः
अस्तु धन्यवादः भगिनि अग्रे उमामिनस्य भगिनि अग्रे
वृष्टिः नितरां वर्धते तस्यां मा क्रीडत वृष्टिः वर्धमान् वृष्टिः पुल्लिङ्गं स्त्रीलिङ्गं
तत्र तस्याम् इति अस्ति खलु अग्रिमे
स्त्रीलिङ्गमस्ति वृष्टिः वर्धमाना नितरां वर्धमाना अस्ति तस्यां मा क्रीडत अतः वृष्टौ न
तत्र वृष्टिः इति मतिशब्दवत् अतः रूपद्वयम् अस्ति नाम तत्र मत्यां मत्यौ इति
वृष्ट्याम् अथवा वृष्टौ नितरा वर्धमानायां वृष्टौ मा क्रीडत
इति भवति समीचीनं भगिनि तथैव अस्ति तत्र वृष्टिः इति मतिशब्दवत् ह्रस्वैकारन्त स्त्रीलिङ्गं
वृष्टौ अथवा वृष्ट्यां
वृष्ट्याम् इति तत्र रूपद्वयं तस्य अस्तु समीचीनम् अस्तु अग्रे तत्र नरेश् महोदय अग्रे
आं महोदय शिशुः तल्पे शेते तं मा जागरयत शिशुः तल्पे शेते शिशुः तल्पे शयानः अस्ति शयानः अस्ति अग्रे तं मा जागरयत् द्वितीयविभक्ति अतः शयानं शिशुं तल्पे शयानं शिशुं मा जागरयत
इति अस्ति समीचीनं महोदय तल्पे शयानं शिशुं मा जागरयत समीचीनं अस्तु उत्तमम् अस्तु अग्रे हर्षदा भगिनी अग्रे
युद्धात् भीरवः पलायन्ते तेषां हननं न श्रेयसे युद्धात् भीरवः पलायमानाः सन्ति तेषां हननं न श्रेयसे युद्धात् पलायमानानां भीरवानां हननं न श्रेयसे
तत्र
भीरु 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 भीरवः भीरूणां युद्धात् भीरूणां युद्धात् पलायमानानां भीरूणां हननं न श्रेयसे
इति अस्ति समीचीनं भगिनि
तदेव अहं चिन्तितवती अहम् इदानीं पर्यन्तं किमपि त्रुटि कथं न कृतवती?
चिन्ता मास्तु भगिनि, समीचीनम्. अस्तु,
धन्यवादः.
अग्रे तत् समीचीनं भगिनि. अस्तु, अग्रे पल्लवी भगिनि, अग्रे.
आं महोदय. माता पुत्रं प्रतीक्षते, तस्याः मुखे उत्कण्ठा दृश्यते. माता प्रतीक्षते तस्याः, तर्हि मातुः प्रतीक्षमाणायाः मातुः, पुत्रं प्रतीक्षमाणायाः मातुः मुखे उत्कण्ठा दृश्यते
इति अस्ति भगिनि. समीचीनं. पुत्रं प्रतीक्षमाणायाः मातुः मुखे उत्कण्ठा दृश्यते. समीचीनं. समीचीनम्. अस्तु, अग्रे निवेदित भगिनि.
आम्. दुर्जनाः वृथा विवदन्ते, तेभ्यः दूरं गच्छत. दुर्जनाः वृथा विवादमानाः सन्ति, तेभ्यः दूरं गच्छत. वृथा विवादमानेभ्यः दुर्जनेभ्यः दूरं गच्छत.
हा, सर्वं समीचीनं भगिनि. तत्र केवलं विवदमाना, विवदमानेभ्यः,
विवदमान,
केवलं
विवदमानेभ्यः दुर्जनेभ्यः, वृथा विवादमानेभ्यः दुर्जनेभ्यः दूरं गच्छत
इति उत्तमं. समीचीनं भगिनि. अस्तु, अग्रे उषा भगिनि.
ते वाक्यानि सम्यक् प्रयुञ्जते, तेभ्यः किं ददानि? तेभ्यः किं ददानि, ददानि इति अस्ति तत्र चतुर्थी विभक्ति भवति तेभ्यः. अतः ते वाक्यानि सम्यक् प्रयुञ्जानः इति भवति, प्रयुञ्जते प्रयुञ्जानः. अतः वाक्यानि सम्यक् प्रयुञ्जानेभ्यः तेभ्यः किं ददानि
इति अस्ति भगिनि. उत्तमम्. हा, इति अस्ति. इदानीं भवती निपुणा जाता. वाक्यानि सम्यक् प्रयुञ्जमानेभ्यः तेभ्यः किं ददानि. कर्तृपदं किम् अस्ति अत्र?
वाक्यानि प्रयुञ्जते,
न मिलित्वा, यत् वाक्यं भवती उक्तवती तस्मिन् वाक्ये कर्तृपदं किम्?
वाक्यानि सम्यक् प्रयुञ्जानेभ्यः
तेभ्यः
किं ददानि. प्रयुञ्जानेभ्यः
कर्तृपदं किम् अस्ति?
प्रयुञ्जानेभ्यः, प्रयुञ्जानेभ्यः अस्ति महोदय.
नाम कर्तृपदस्य विभक्ति का?
ते,
तत्र क्रियापदं किमस्ति भगिनि? भवत्याः वाक्ये क्रियापदं किमस्ति? मेलनं कृत्वा केवलम् एकमेव वाक्यं यदा भवति तदा किं क्रियापदं भवति तत्र?
किं ददानि
क्रियापदं किम् अस्ति?
ददानि.
ददानि, अस्तु. ददानि इति क्रियापदं, तत्र पुरुषः वचनं वदतु ददानि इति.
ददानि, दद, किं, पुंलि, सः कौते
एतत् एतत् क्रियापदमस्ति भगिनि, एतत् नामपदं नास्ति. पुरुषः वचनं किम् अस्ति ददानि इति?
ददानि किम्, एकवचने ददा,
तत्र अस्तु, तत्र
किं प्रयुञ्जेभ्यः ददानि बहुवचने अस्तु न ददत्.
न अस्तु अस्तु, भवती न स्मरति इति मन्ये, चिन्ता मास्तु भगिनि. ददानि इति लोट्लकारः, उत्तमपुरुषः एकवचनं.
ददानि उत्तमपुरुषः
एकवचनं, नाम पठतु, भवान्
पठानि,
अहं पठानि वा इति अस्ति खलु, अहं पठामि वा किं ददामि इति
भवति अहं किं ददामि इति
तर्हि कर्तृपदं किमस्ति
अहम्
उत्तमम् अस्तु अतः तेभ्यः अहं किं ददामि इति प्रश्नः तत्र अस्तु समीचीनम् अस्तु अग्रे तत्र अग्रे कः तत्र शोभा भगिनी अग्रे
महोदय तत्र यशोदा कृष्णम् उलूखले बध्नीते तां गोप्यः आह्वयन्ति तत्र बध्नीते इति क्रियापदं कुत्र भवति महोदय
बध्नीते तत्र तु मुगागमः नास्ति खलु यतोहि तत्र बध्नीते इति अस्ति तर्हि तत्र बध्नानः इति वा रूपं द्रष्टव्यम् अस्ति
यतो बध्नात् बध्नाति भवति चेत् तत्र दीर्घ आकारः भवति अतः बध्नीते इति रूपमपि न प्राप्तं किन्तु
आलोकते अस्ति किं भगिनि महोदय अस्माकं नूतनपुस्तके यशोदाकृष्णम् आलोकते अस्ति बध्नीते नास्ति
बध्नीते नास्ति वा अस्तु अस्तु
हा त्रुटि अस्ति इति मन्ये बध्नीते यतः अहम् अष्टाध्यायीमध्ये अपि बध्नीते न प्राप्तवती
यतोहि बध्नाति इति अस्ति खलु बध्नाति इति
बध्नाति अस्ति अन्यत् किमपि धातुः अपि नास्ति बध्नीते इति
तत्र मुद्रणदोषः एव अस्तु
मुद्रणदोष इति भाति बध्नीते अहं सर्च् कृतवती न प्राप्तवती अष्टाध्यायी मध्ये
अस्तु अस्तु तर्हि तत्र नूतनमुद्रणे तत्र वाक्यं किमस्ति यशोदा
कृष्णम् आलोकते तां गोप्यः आह्वयन्ति
ओ अस्तु 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 तर्हि तत्र कृष्णम् आलोकते इति एव स्वीकुर्मः तर्हि
तथा एव वदामि वा वदामि वा महोदय
तथा एव वदतु भगिनि तर्हि यतोहि
यशोदा कृष्णम् आलोकते तां गोप्यः आह्वयन्ति तत्र यशोदा कृष्णम् आलोकमाना अस्ति तां गोप्यः आह्वयन्ति कृष्णम् आलोकमाना यशोदां गोप्यः आह्वयन्ति
कृष्णम् आलोकमानां यशोदां
गोप्यः आह्वयन्ति
समीचीनम् आलोकमानाम् इति एव उक्तवती खलु भगिनि
आं महोदय
अस्तु
तत्र बध्नाति इति अस्ति चेत् महोदय बन्धयमाना इति भवति
किन्तु बध्नाति चेत् तत्र
बध्नाति अस्ति चेत् आम्
किन्तु
बध्नाति अस्ति चेत् शत्रुन्त भवति
आम् तत्र सत्यं बध्नाति इति तु शत्रुन्त एव भवति
अतः अतः एव तत्र बध्नाति इति चिन्तनं तत्र परस्मै अस्ति परस्मै अस्ति इति मनसि
किमर्थं दत्तं तत्र तत्र शानच् अपि दत्तं किन्तु बन्धयन्ति इति एव स्वीकरणीयं तत्र प्रायशः
तत्र प्रायशः मुद्रणदोषः अस्ति अस्तु समीचीनं
न तत्र अष्टाध्यायी डाट् कां मध्ये शानच् अपि दत्तं किमर्थम् इति न जाने
किमर्थं ते तत्र दत्तम् इत्युक्ते भगिनि नाम तत्र वयं जानीमः खलु तत्र मूलधातुः यद्यपि परस्मै भवेत् उपसर्गस्य योजनेन केचन धातवः तत्र आत्मनेपदीरूपं प्राप्नुवन्ति खलु
सत्यम्
अतः यदि तादृशमस्ति किन्तु
उपसर्गसहित
न उपसर्गसहितधातुः अस्ति चेत् तत्र मूलधातु परस्मैपदी इति चिन्तयतु किन्तु उपसर्ग अनन्तरम् उपसर्गसहितधातुः आत्मनेपदी अस्तु चेत् तस्य शानजन्तरूपं कथं भवति इति निर्धारितुम् उपसर्गरहितधातोः शानजन्तरूपमेव स्वीकुर्मः खलु, यद्यपि तस्य प्रयोगः न भवति किन्तु यद् अतः अष्टाध्यायी मध्ये तद्रूपम् अपि दत्तमस्ति, यद्यपि तद् परस्मैपदी धातुः भवति चेदपि शानजरूपं तत्र दत्तं भवति, आत्मनेपदी धातूनामपि तत्र शत्रन्तरूपं दत्तं भवति, यतोहि यदि उपसर्गसहित धातुः अस्ति चेत् यदि तत्र परस्मैपदी वा आत्मने तत्र यदि तत्र परिवर्तनं भवति चेत् उपयोगं भवति इति.
अस्तु महोदय.
अतः तत्र दत्तमिति कृत्वा तत्र मूलधातोः प्रयोगः न कर्तुं शक्नुमः, प्रयोगं न कर्तुं शक्नुमः.
हा प्रायश प्रबन्धयमाना इति वक्तुं शक्नुमः तर्हि.
यदि तत्र उपसर्ग उपसर्गतादृश उपसर्ग अस्ति येन परिवर्तनं भवति तदा तादृशरूपं भवति.
तत्र प्रबन्धं प्रबन्धः इति अस्ति, प्रबन्धयमाना इति भवितुम् अर्हति इति. तत्र कृष्णं प्रबन्धयमानां यशोदां गोप्यः आह्वयन्ति इति इति मन्ये महोदय.
अस्तु भगिनि, अस्तु अस्तु समीचीनम्. अस्तु अग्रे तत्र तत्र मम मनसि तत्र कः का इति किञ्चित् मनसि क्लेशः अस्ति, तत्र तर्हि तत्र अस्तु तत्र हा उमा मीनाक्षी भगिनी भवती पठति वा?
आद्रियन्ते तेषु उत्सवः दृश्यते, ते गुरुम् आद्रियाणाः सन्ति.
न न न आद्रियन्ते इति तत्र तत्तु मुगागमः भवति इति मन्ये भगिनि, नाम तत्र आद्रियमाणः
आद्रियमाणाः ओ ते गुरुम् आद्रियमाणाः सन्ति तेषु उत्साहः दृश्यते. गुरुम् आद्रियमाणेषु तेषु उत्साहः दृश्यते
इति अस्ति भगिनि. हा गुरुम् आद्रियमाणेषु तेषु उत्साहः दृश्यते. आद्रियन्ते नाम आदरं कुर्वन्ति,
आदरं कुर्वन्ति,
गुरोः आदरं कुर्वन्ति इति. अस्तु समीचीनं भगिनि. हा अस्तु अग्रे पल्लवी भगिनि अग्रे.
आम् सैनिकाः धैर्येण युध्यन्ते तैः देशः रक्षितः. तैः सैनिकाः युध्यन्ते तैः तर्हि सैनिकैः युध्यमानैः सैनिकैः देशः रक्षितः, धैर्येण युध्यमानैः सैनिकैः देशः रक्षितः.
हा तत्र यद्यपि तत्र तृतीया तत्र पदत्रयं तृतीयविभक्त्यमस्ति किन्तु भेदः वर्तते, तर्हि तत्र कुत्र विशेषभावः इति किञ्चित् वदतु तर्हि तत्र.
आं तर्हि सैनिकः इति विशेष्य अस्ति युद्धमानं युद्धमानैः सैनिकैः विशेषविशेषभावः.
हा समीचीनं, किन्तु धैर्येण तत्तु केवलं भाव तत्र भाव भावतृतीय धैर्येण इति अथवा. अस्तु समीचीनम्. अस्तु अग्रे निवेदित भगिनि.
आम् ताः सत्यमेव ब्रुवते तासु सर्वे जीयन्ति. ताः सत्यमेव ब्रुवाणाः सन्ति तासु सर्वे स्निह्यन्ति. सत्यमेव ब्रुवाणासु तासु सर्वे स्निह्यन्ति.
हा समीचीनं भगिनि, समीचीनं, सर्वे स्निह्यन्ति समीचीनं. हा अस्तु अग्रे हर्षिता भगिनि.
आं महोदय निरीक्षकाः परीक्षां निरीक्षन्ते तेभ्यः छात्राः बिभ्यति निरीक्षकाः परीक्षां निरीक्षमाणाः सन्ति तेभ्यः छात्राः बिभ्यति निरीक्षमाणेभ्य परीक्षां निरीक्षमाणेभ्यः निरीक्षकेभ्यः छात्राः बिभ्यति
इति अस्ति समीचीनं भगिनि अस्तु अग्रे नरेश महोदय
युवकः वृद्धान् सेवते तस्य साहाय्यं कुर्मः युवकः वृद्धान् सेवते सेवते सेवमानाः सन्ति सेवमानः अस्ति युवकः वृद्धान् सेवमानः अस्ति तस्य साहाय्यं कुर्मः सेवमानः सेवमानस्य युवकस्य साहाय्यं कुर्मः वृद्धान् सेवमानस्य युवकस्य साहाय्यं कुर्मः
कर्तृपदं
कर्तृपदं तु भवान् वयं कुर्मः
वृद्धान् सेवमानस्य युवकस्य
साहाय्यं कुर्मः वयं कुर्मः
समीचीनं अस्तु अग्रे उषा भगिनी
आकाशे नक्षत्राणि द्योतन्ते तानि बालाः वीक्षन्ते तानि आकाशे नक्षत्राणि द्योतमानाः तानि बालाः वीक्षन्ते अतः आकाशे द्योतमानानि नक्षत्राणि आकाशे बालाः वीक्षन्ते
पुनः भगिनि वाक्यं वदतु
आकाशे द्योतमानानि आकाशे नक्षत्राणि द्योतमानानि अस्ति तानि बालाः वीक्षन्ते द्योतमानानि नक्षत्राणि
तर्हि तत्र क्लेशः कुत्र वर्तते आकाशे इति पदं कुत्र भवेत् इति वा
आकाशे द्योतमानानि नक्षत्राणि बालाः वीक्षन्ते इति
समीचीनं भवति हा इति एव समीचीनं द्योतन्ते कुत्र द्योतन्ते आकाशे अतः आकाशे द्योतमानानि नक्षत्राणि
बालाः वीक्षन्ते
यदि तत्र आकाशे इति बालः पूर्वं स्थापयामः बालः आकाशे तत्र आकाशे सन्ति इति भवति अतः तत्र आकाशे द्योतमानानि बालाः वीक्षन्ति समीचीनम् अस्तु भगिनि अग्रे शोभा भगिनि
सा नितरां खिद्यते तां सख्यः संवयन्ति सा नितरां खिद्यमाना अस्ति तां सख्यः सान्त्वयन्ति नितरां खिद्यमानां तां सख्यः सान्त्वयन्ति
सख्यः सान्त्वयन्ति इति अस्ति समीचीनम् अस्तु अग्रे तर्हि तत्र अस्तु तत्र केवलं पुटद्वयमस्ति इदानीम् अस्तु अस्तु उत्तमम् अस्तु तर्हि इदानीं तत्र नरेश महोदय नूतन अभ्यासः तत्र
कथान्तर्गतानि शानजन्तानि एतानि वाक्यानि परिशीलयत प्रश्नस्य दर्शनाय सर्वे यतमानाः सन्ति
तर्हि तत्र किञ्चित् विवृणोतु स्वशब्दैः
कृष्णस्य दर्शनाय सर्वे यतमानाः सन्ति यतमानः
अत्र शानजन्तरूपम् अस्ति सर्वे यतन्ते अतः सर्वे यतमानाः सन्ति किं कर्तुं कृष्णस्य दर्शनाय दर्शनाय यतमानाः सन्ति कस्य दर्शनाय कृष्णस्य आय सर्वे यतमानाः सन्ति
समीचीनं महोदय समीचीनं तथैव अस्ति अस्तु अग्रे उमा मीनाक्षी भगिनि
देवर्षिः नारदः कृष्णं दिदृक्षमाणः आगतः ओके आगतः दिदृक्षमाणः आगतः देवर्षिः नारदः क्रियापदं क्षम्यतां कर्तृपदं कः आगतः नारदः देवर्षिः नारदः आगतः
सहैव नारदः
सहैव
दिदृक्षते सः दिदृक्षते
कीदृशः नारदः दिदृक्षमाणः नारदः
कं दिदृक्षमाणः नारदः
कृष्णं दिदृक्षमाणः नारदः आगतः
आगतः नाम नारदः कृष्णं दिदृक्षते नाम नारदः कृष्णं द्रष्टुम् इच्छति दिदृक्षमाणः नाम दिदृक्षते इत्युक्ते द्रष्टुम् इच्छा द्रष्टुम् इच्छति
एतत्तु पठितरूपं नास्ति
हा भगिनि तत्र दिदृक्षमाणः सनन्त पदमस्ति हा दिदृक्षमाणः दिदृक्षते इति तत्र क्रियापदात् अन्यत् क्रियापदं तत्र भवति नाम तत्र द्रष्टुम् इच्छा दिदृक्षते इति तादृशं तत्र अग्रे गत्वा पश्यामः हा किन्तु तत्र दिदृक्षते नारदः कृष्णं दिदृक्षते सः आगतः अतः देवर्षि नारदः कृष्णं दिदृक्षमाणः देवर्षि नारदः आगतः अस्ति इति भवति समीचीनं भगिनि अस्तु अग्रे पल्लवी भगिनि अग्रे
सः मोदमानः अस्ति सः अस्ति सः कीदृशः अस्ति मोदमानः अस्ति
नाम सः मोदते सः अत्र
सः मोदते सः अस्ति सः मोदते
मोदते तावदेव समीचीनं भगिनि अस्तु अग्रे निवेदिता भगिनि
नारद सारी खिद्यमानं कृष्णं नारदः अपश्यत् कृष्णं कीदृशम् अस्ति कृष्णं खिद्यमानम् अस्ति
कृष्णः कीदृशः अस्ति कृष्णः कीदृशः
कृष्णः अस्ति कृष्णः क्रीड्यमानम् अस्ति
खिद्यमानः अस्ति खिद्यमानः
खिद्यते इति क्रियापदमस्ति कृष्णः खिद्यते दं नारदः अपश्यत्
दं नारदः अपश्यत् समीचीनम् अस्तु अग्रे शोभा भगिनि
आं महोदय नारदः कम्पमानः अगच्छत् नारदः अगच्छत् कम्पमानः नारदः अगच्छत् नारदः कम्पमानः अस्ति अपि च सः आगतवान्
समीचीनं
कम्पमानः नारदः अगच्छत् अपगतवान् क्षम्यताम् अगच्छत्
अगच्छत् अस्तु समीचीनम् अस्तु अग्रे उषा भगिनि
भगवतः अन्वेषणाय प्रयतमानः अस्ति प्रयतमानः तत्र कः प्रयतमानः अस्ति न भगवतः अन्वेषणाय प्रयतमानः अस्ति
तत्र को सः इति स्वीकरोतु
सः भगवतः अन्वेषणाय प्रयतमानः अस्ति इत्युक्ते कः प्रयतमानः अस्ति
इति मास्तु तत्र प्रायशः नारदः इति स्वीकरोतु नारदः भगवतः अन्वेषणाय
प्रयतमानः अस्ति
तर्हि अर्थः कः
भगव नारदः भगवतः अन्वेषणाय प्रयत्नं करोति
हा समीचीनं नाम प्रयतते
प्रयतते
देवर्षि नारदः भगवतः अन्वेषणाय अन्वेषणार्थं तत्र अन्वेषणं भवेत् इति सः प्रयतते कस्य अन्वेषणं भगवतः अन्वेषणं
षष्ठी
नाम भगवान् कुत्र अस्ति इति कृष्णः श्रीकृष्णः कुत्र अस्ति इति तादृश अन्वेषणाय सः
प्रयतते
इति अस्ति समीचीनम् अस्तु तर्हि तत्र अत्रैव स्थगयामः तत्र केवलं पुटद्वयमेव अस्ति अतः तत्र अग्रिमे वर्गे समापयितुं शक्नुमः इति मन्ये अस्तु तर्हि तत्र पल्लवी भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि पल्लवी भगिनि
न स्मरामि महोदय
अस्तु 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 चिन्ता मास्तु तर्हि तत्र निवेदिता भगिनी वदति वा
आम् अस्तु तर्हि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः धन्यवादः
धन्यवादः धन्यवादः हरि ओम् धन्यवादः भगिनी धन्यवादः
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 धन्यवादः महोदय